भारतीयपारम्परिकशास्त्राणां सरलपरिचयार्थं कश्चन अयं संस्कृतभारतीपक्षतः यः अवकाशः कल्पितः तमवकाशम् उपयोक्तुमत्र भवताम् अलङ्कारशास्त्रस्य सरलपरिचयार्थमयम् अहमत्र कञ्चित् प्रसङ्गमुद्धृत्य किञ्चित् वक्तुम् इच्छामि। वस्तुतः अत्र प्रसङ्गविषयो भवति कविः कः। काव्यप्रपञ्चस्य प्रजापतिः इति अपारे काव्यसंसारे कविरेकः प्रजापतिः इति उच्यते। यथास्मै रोचते विश्वं तथेदं परिवर्तते इति ध्वन्यालोके आनन्दवर्धनः कथयति। नाम काव्यसंसारः सुविशालः भवति, अस्मिन् सुविशाले काव्यसंसारे प्रजापतिः स्रष्टा भवति कविः। यथा अयं कविः स्वभावनाम् आधारीकृत्य एतं प्रपञ्चं स्रष्टुम् इच्छति, तथा एतत् जगत् निर्मितं भवति। अतः काव्यजगतस्तत्र प्रजापतिः कविः। एवं कवेः विषये वयं ज्ञातुं यदि इच्छामः, तत्र कविः कीदृशः, तस्य स्वभावः कः इति विचारः शास्त्रेषु बहुधा बहुभिरपि महर्षिभिः कृतः वर्तते। तमधुना कञ्चिद् विचारं वयं स्वीकुर्मः साम्प्रतम्। अधुना कविः नाम कः कविः इति चेत्, कवयति इति कविः गौरवर्णने इति धातुः, नाम यः वर्णयति सः कविः इति अनया व्युत्पत्त्या साधितः अर्थः। परन्तु यः कवयति तस्य कवित्वसम्पत्तये, नाम कवित्वसम्पत्तिकारणं किम् इति विचारणीयः अंशः। नाम अस्मासु यः कोऽपि कश्चन नूतनगुणः आविर्भूतो नाम सः प्राक्तनसंस्कारेण प्राक्तन अभ्यासबलेन एव सः संस्कारः अस्मासु आविर्भवति। अधुना कविः कश्चित् भवति, सः कवनपटुर्भवति, नाम वर्णयितुं चतुरः, वर्णनचतुरः भवति। वस्तुतः वयं जगत् पश्यामः, एतत् जगत् भवति पशुपक्षि नानाजन्तुजालं पाषाणवृक्ष सस्यादि समुदितं जगत् इति वयं वदामः। नाम अस्मिन् प्रपञ्चे बहूनि वस्तूनि सन्ति, तानि वस्तूनि कानिचित् अचेतनानि कानिचित् चेतनानि इति। परन्तु चेतनम् अचेतनमेतदुभयमपि जगत् वयं पश्यामश्चेत् एकया दृशा, कवयः पश्यन्ति चेत् अन्यया विलक्षणया दृशा, तत्र जगतः स्वभावस्वरूपप्रतिपादनं भवति। वयमेकं पर्वतं पश्यामः, अयं पर्वतः पाषाणसमुदायः इति अस्माकं भावः भवति। परन्तु कविः पश्यति चेत् पर्वते औषधीः पश्यति, पर्वते नानाविधवृक्षान् पश्यति, पुनः अयं पर्वतः साक्षात् भूतिमान् परमेश्वर इव आभाति इति कथयति। कथमिव? पुनः कश्चित् अन्यः कविः कथयति, अधुना अयं पर्वतः सूर्यस्य उदयार्थं पुनः अस्तमयनार्थं चन्द्रस्य उदयास्तमयनार्थम् उपकल्पितः कश्चन गृहदेशः इति वदति। वस्तुतः अस्माकं भावस्तथा न भवति। अधुना एवं पश्यामश्चेत् कविदृष्टिरन्या भवति, अस्मद्दृष्टिरन्या भवति। अतः एव भट्टतौतः इति कश्चित् आलङ्कारिकः निज अलङ्कारशास्त्रे निज नाम काव्यकौतुकम् इति अलङ्कारग्रन्थे सः एवं कथयति नाण्ऋषिः कविरित्युक्तं ऋषिश्च किल दर्शनात् विशिष्टभावधर्मांशतत्त्वप्रख्याश दर्शनम् इति नाम नाण्ऋषिः कविरित्युक्तम् इति चेत् ऋषिरेव कविः ऋषिर्यः भवति सः कविशब्दवाच्यः न भवति परन्तु ऋषिरेव कविरिति चेत् आदौ ऋषिः कः इति विचारणीयः अधुना ऋषिर्भवति दर्शनपटुः नाम दर्शनक्रियायां यः विलक्षणप्रतिभावान् विलक्षणगुणसम्पन्नः सः भवति ऋषिः ऋषिर्दर्शनात् इति धातु विषयकव्युत्पत्तिः एवं चेत् ऋषिर्दर्शनात् इति नाम दर्शनपटुः ऋषिः परन्तु केवलदर्शनेन एव ऋषिश्चेत् स एव ऋषिः कविः इति वदामः परन्तु ऋषिकव्योर्मध्ये भेदः कः दर्शनपटुः ऋषिः इति चेत् सः वदति तत्र दर्शनवर्णनरूपक्रियाद्वयेऽपि यः निपुणः भवति सः कविः इति अत एव नाण्ऋषिः कविरित्युक्तं ऋषिश्च किल दर्शनात् द्विचित्रभावधर्मांशतत्त्वप्रख्याच दर्शनम् इति नाम पुनः दर्शनपटुः ऋषिर्भवति चेत् तद्दर्शनं कीदृशम् इति चेत् विचित्रभावधर्मांशतत्त्वप्रख्यं यद्भवति तद्दर्शनं नाम लोकसहजं यद् दर्शनमस्ति तद् विलक्षणं दर्शनं एव दर्शनम् इति अत्र उच्यते दर्शनं नाम पशुपक्ष्यादिजन्तुजालादिविषयकदर्शनम् एव अत्र न स्वीक्रियते तद्दर्शनं केवलं लौकिकदर्शनं कविदर्शनं भवति भावात्मकम् अतः भावात्मकभावप्रपञ्चे कविना यत् दृश्यते तद्दर्शनं कीदृशम् इति चेत् विचित्रभावधर्मांशतत्त्वप्रख्या च दर्शनम् इति अत्र उच्यते अतः तादृशदृष्टिमान् कविः तादृशदृष्टिमान् ऋषिः स एव कविः इति उच्यते अधुना स तत्त्वदर्शनादेव शास्त्रेषु पठितः कविः दर्शनात् वर्णनात् चाथ रूढालोके कविश्रुतिः इति नाम एवं दर्शनपटुरपि भवेत् यद् दृष्टं तस्य वस्तुनः यथार्थस्वरूपवर्णनपटुरपि भवेत् कविरिति अत्र कविविषयकविशिष्टगुणसम्पत्तिः एवं कृता वस्तुतः ऋषिर्भवति दर्शनपटुः कविः भवति दर्शनवर्णनपटुः इति एवम् उपपन्नम् अधुना अत्र उपलक्षणं किञ्चित् दर्शयति भट्टतौतः वाल्मीकिमहर्षिः आदिकविः कदा सञ्जातः इति चेत् यदा रामचरितमात्मनि दृष्टवान् तदा सः कविर्न सम्भूतः आत्मनि यत् रामचरितं यद्दृष्टं नारदेन यदुपदिष्टं रामचरितं तत् ललितललितसुकुमारशब्दजालैः यदा श्लोकरूपमानीतवान् तदा एव ऋषिः आदिकविः इति पदवीं प्राप्तवान् अत एवमुच्यते ऋषिः भिन्नः कविः भिन्नः इति केन हेतुना निर्धार्यते इति चेत् कविर्भवति दर्शनवर्णनपटुः ऋषिर्भवति दर्शनपटुः इति एवं विषयसन्दर्शनावसरे नानाप्रसङ्गाः नोद्धर्तव्याः अधुना कविरेतादृशः पुनः मुण्डकोपनिषदि किञ्चित् वाक्यमस्ति कवयः किं कवयन्ति कवयः कवनपटवः नाम दर्शनवर्णनपटवः भवन्ति. अतः तत्र मन्त्रमस्ति तत्सत्यं. तत्सत्यं मन्त्रेषु कर्माणि कवयः यान्युपदिष्टानि तानि बहुधा विदधानि इति मन्त्रः तत्र वर्तते मुण्डकोपनिषदि. नाम वेदमन्त्रेषु यानि यानि कर्माणि सर्वैरपि जनैर्नित्योपास्यानि इति तत्र निर्दिष्टानि तेषामेव कर्मणां सुविपुलवर्णनं काव्येषु कविभिः कृतम् इति अत्र वर्णितमस्ति. अतः वेदमूलकम् एव काव्यं काव्यं भवति. नाम यत् अस्मासु हितबोधकं, यत् धर्मे प्रवर्तकम्, अधर्मे निवर्तकं, सर्वजनाश्रयस्कारकं भवति तदेव काव्यम्. अतः तत्र नन्नयभट्टारकः आन्ध्रशब्दचिन्तामणिग्रन्थस्य आरम्भसूत्ररूपेण एवं निक्षिपति यत् विश्वश्रेयः काव्यं. काव्यं यदस्ति तद्विश्वश्रेयः इति. नाम विश्वश्रेयः का विश्वश्रेयस्कारकं काव्यम् इति. एवं चेत् अधुना अस्मान् धर्मे प्रवर्तयितुम् अधर्मे निवर्तयितुं च अनेके विषयाः अनेकानि शास्त्राणि प्रवृत्तानि सन्ति, महर्षिभिः प्रणीतानि सन्ति. विशिष्य कविना यद्विरचितं काव्यं तदेव अस्मान् धर्मे प्रवर्तयति इति किं तत्र मानम् इति चेत् सर्वाः अपि विद्याः अस्मान् धर्मे प्रवर्तयन्ति, एवं काव्यमपि धर्मे प्रवर्तयति. परन्तु सुकुमारमतयः राजपुत्रादयः ये अतत्त्वज्ञाः केवलं सुलभविषयग्राहिणः भवन्ति तेषामपि धर्मे प्रवर्तनार्थं काव्यं कविभिरुपदिष्टं भवति. नाम सर्वेषां, नाम ये पण्डितास्सन्ति ये विचक्षणाः ते तु वेदशास्त्रादिकमभ्यस्य स्वयम् आत्मानं धर्मे प्रवर्तयितुं प्रभवन्ति. ये तादृग्व्यापारे अकुशलाः तेषामपि धर्मे प्रवृत्त्यर्थं सुलभमार्गनिवेशः कविभिः कृतः. एवं चेत् काव्ये किं वर्णितं भवति इति चेत् महापुरुषचरितं, धर्मप्रवर्तकं किञ्चित् यत्किमपि कथावस्तु तत्र निक्षिप्यते. तन्निक्षेपेण अस्माकम् अत्यन्तं श्रेयस्कारिता, अत्यन्तं मङ्गलं भवति. एवं काव्ये नानाविद्याः उपलभ्यन्ते. काव्ये केवलं धर्मो धर्मोपदेशः एव भवति इति न चिन्तनीयं. धर्मोपदेशेन सह अन्येपि विषयाः आनुषङ्गिकतया तत्र निक्षिप्यन्ते. अतः एव भामहेण एवमुक्तं, न स शब्दः न संन्यायः न सा विद्या न सा कला जायते यन्न काव्याङ्गम् अतो भारो महाकवेः इति. नाम काव्ये यः शब्दः न प्रयुक्तः सः शब्दः एव न भवति. यः तत्र न्यायः न दर्शितः स च न्यायः एव न भवति इति. नाम या विद्याः विद्याः सन्ति ताः विद्याः सर्वाः अपि काव्ये भवन्ति. सर्वाः अपि कलाः, चतुष्षष्टिकलाः सर्वाः अपि काव्ये उपलभन्ते. एवञ्चेत् सर्वकलामयं सर्वशास्त्रमयं भवति काव्यं. काव्यं धर्मोपदेशकं यथा भवति तथा शास्त्रोपदेशकमपि भवति. अतः शास्त्रकाव्यम् इत्यपि कश्चित् विभागः अस्माकं काव्यविभाग अवसरे लाक्षणिकैर् विचारितमस्ति। एवं सर्वोपि शब्दप्रपञ्चः शब्दज्ञानार्थं काव्यप्रपञ्चे प्रयुक्तः, सर्वोपि धर्मप्रपञ्चः धर्मप्रवृत्त्यर्थं काव्ये प्रयुक्तः, पुनः सर्वाः अपि विद्याः स्वस्वपरिचयार्थं नाम सर्वासां विद्यानां परिचयार्थमस्माकं सुविपुलकालः सुविशालः कालः अपेक्षितः, परन्तु काव्यपठनेन तासां परिचयः सुलभः भवति, पुनः सर्वासामपि कलानां दर्शनार्थं तेषां तासां परिचयार्थमपि कालः अधिकः अपेक्षते, परन्तु काव्यपठनेन काव्यश्रवणेन च ताः कलाः ताश्च विद्याः सुलभतया परिचिताः भवन्ति इति। एवं कविर्भवति सर्वशास्त्रकुशलः सर्वकलानिपुणः भवति, नाम केवलमेकस्मिन् शास्त्रे सः कुशलः चेत् काव्यं रचयितुं न प्रभवति, केवलमेककलामात्रप्रतिभावान् भवति चेत् कविः सोऽपि काव्यं रचयितुम् असमर्थः। एवं कालिदासादिमहाकवीनां काव्येषु वयं सन्दर्भोचिततया ज्योतिषसाङ्ख्यन्याय्यवैशेषिकयोगमीमांसादिदर्शनशास्त्रसम्बन्धीनि वस्तूनि विषयजातानि बहूनि अपि वयं तत्तत् काव्यपठनेन उपलभामहे। मल्लिनाथादिव्याख्यानसन्दर्भेष्वपि तत्र ते विषयाः सप्रमाणं निरूपितास्सन्ति। एवं सारभूततया ये विषयास्तत्र प्रतिपादिताः ते एव अस्माभिर्ज्ञातव्याः भवन्ति। पुनः कविर्भवति प्रतिभावान् इति, इयञ्च प्रतिभा कीदृशी, काव्यकारणं प्रतिभा इति निरूपणार्थं बहवः आलङ्कारिकाः प्रायतन्त, नाम सर्वेषामपि आलङ्कारिकानां मुख्यः सिद्धान्तः भवति प्रतिभैव काव्यस्य कारणम् इति। प्रतिभैव च कवीनां काव्यकारणकारणं व्युत्पत्त्यभ्यासौ च तस्य संस्कारकारकौ इत्यपि केनापि महाशयेन प्रोक्तं वर्तते। केवलं प्रतिभामूलतया एव काव्यनिर्माणं, व्युत्पत्तिः अभ्यासश्च प्रतिभामुद्बोधयितुं प्रतिभां विश्वतोमुखेन प्रसारयितुं प्रभवतः। अतः मूलं वस्तु यद्भवेत् तत् प्रतिभामूलकमेव काव्यम्। एवं प्रतिभा कतिविधा कीदृशी काव्य कीदृशी प्रतिभा काव्यकारणमिति विचारसन्दर्भे भट्टतौतः एव भट्टतौताद्यालङ्कारिकाः एवं व्याहरन्ति, स्मृतिर्व्यतीतविषया मतिरागामिगोचरा बुद्धिस्तात्कालिकी ज्ञेया प्रज्ञा त्रैकालिकी मता प्रज्ञा नवनवोन्मेषशालिनी प्रतिभामता इति। नाम व्यतीतविषया नाम भूतकालीना या प्रतिभा भवति सा स्मृतिः, मतिरागामिगोचरा इति नाम भविष्यज्ञानविषयिणी भवति मतिः, बुद्धिर्भवति केवलवर्तमानज्ञानविषयिणी भवति, परन्तु त्रिकालज्ञानविषयिणी भवति प्रज्ञा, सा च प्रज्ञा नवनवोन्मेषशालिनी नूतननूतनतया चमत्कारजननसमर्था, नाम प्रत्येकमपि वस्तुनि विलक्षणं गुणमुद्भावयितुं या च प्रज्ञा समर्था भवति सा प्रतिभानाम्नी इति आचार्यैर्निर्दिष्टम्। एवं प्रतिभा नाम त्रैकालिकी भवति नवनवोन्मेषशालिनी अपि भवति इति एवम् अस्माभिर्ज्ञातम्। ईदृश्या प्रतिभया यत् काव्यं प्रणयति महाकविः तत् काव्यं कीदृशम् इति चेत् तत्र लाक्षणिकैः काव्यस्वरूपसन्दर्भे नानाविधलक्षणवाक्यानि प्रोक्तानि, अन्यैस्तानि समर्थितानि खण्डितानि अपि सन्ति। एवं खण्डनमण्डनप्रवृत्तिः सर्वत्रापि शास्त्रप्रपञ्चे सहजा इति मत्वा सामान्यं यत् काव्यस्वरूपं भवति तदत्र अभिधातुम् इच्छामि। कृच्याकृच्यप्रवृत्तिनिवृत्तिप्रयोजकं चमत्कारजनकज्ञानगोचरं रमणीयार्थप्रतिपादकशब्दकदम्बकं भवति काव्यम्। एवं कृच्याकृच्यप्रवृत्तिनिवृत्तिप्रयोजक चमत्कारजनकज्ञानगोचर रमणीयार्थप्रतिपादकशब्दकदम्बकत्वमेव काव्यत्वम् इति तत्र आलङ्कारिकः प्रावोचन्। अत्र दल् नाम काव्यस्वरूपप्रसङ्गे यानि तत्र वाक्यानि निक्षिप्तानि तानि एवं द्रष्टव्यानि भवन्ति। कृच्याकृच्यप्रवृत्तिनिवृत्तिपरकं भवति काव्यं, नाम काव्यं शास्त्रं भवति इति केचन वदन्ति। अतः एव काव्यशास्त्रं सहृदयशास्त्रं नाम सहृदयाः तत्शास्त्रम् अधीयते इति कारणात् तत् सहृदयशास्त्रमिति, नाम अस्य शास्त्रस्य अधिकारिणो भवन्ति सहृदयाः। पुनः एवं काव्यशास्त्रम् अलङ्कारशास्त्रं सहृदयशास्त्रम् इति अस्यैव शास्त्रस्य नामान्तराणि भवन्ति। परन्तु काव्यशास्त्रस्य शास्त्रत्वं कथम् इति निरूपयितुम् एतत् वाक्यम् उक्तं, कृच्याकृच्यप्रवृत्तिनिवृत्तिप्रयोजकं भवति काव्यम्। अतः कथम् इति चेत् प्रवृत्तिर्वा निवृत्तिर्वा नित्येण कृतकेण वा पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते इति शास्त्रस्य लक्षणं कृतं वर्तते। वस्तुतः शास्त्रं नाम धर्मे प्रवृत्तिम् अधर्मे निवृत्तिञ्च नित्येण कृतकेण वा उपायेन, नाम नित्येन उपायेन वा, यदि नित्यः उपायः तत्र असङ्गतः भवति चेत् कदाचित् कृतकेण कल्पितेन उपायेन वा तत्र जनानां धर्मे प्रवृत्तिम् अधर्मे निवृत्तिञ्च कल्पयितुं सक्षमं स्यात् काव्यम्। काव्यमेव न, यत् शास्त्रशब्देन व्याह्रियते तत्सर्वमपि एतादृग्गुणविशिष्टं भवेत् इति अत्र निर्णयः। एवं नाम नित्योपायः भवति चेत् स च शाश्वतः भवति, कृतकोपायः भवति चेत् केवलं तत्तज्जनजातिदेशकालाधीनः भवति। नाम कदाचित् एकस्य जनस्य एकस्मिन् धर्मे प्रवृत्तिः दुश्शका भवति, एकस्मिन् सुशका भवति, एवम् एकैकस्मिन्नपि प्रदेशे कस्यचित् धर्मस्याचारः सुप्रसिद्धः न भवति, अन्यः प्रसिद्धः भवति। एवं नित्यः वा भवेत् कृतकः भाव कृतको वा भवेदुपायः, उपायस्तु भवेत् स च उपायः शास्त्रेण उपदिष्टश्चेदेव सर्वैराचरणीयः भवति। यावत्पर्यन्तं जलं कतकासङ्गात् शुद्धं न भवति तज्जलं पातुमनर्हं भवति। यावत्पर्यन्तं शास्त्रेण धर्मोपदेशः न प्रयुक्तः स च धर्मः न पालनीयः इत्येव अस्माकम् आचार्यपरम्परायाम् उपदेशक्रमः। पुनः धर्मस्य मूलं भवति वेदः एव, अतः एव लगधमहर्षिः एवं व्याचष्टे धर्मब्रह्मणि वेदैकवेद्ये इति। यत्किञ्चित् भवन्तः धर्मविषये ज्ञातुमिच्छन्ति तत्र मूलं भवति वेदः, नाम वेदादेव सर्वमपि भवन्तः धर्मजातं ज्ञातुमर्हन्ति, तद्भिन्नम् अधर्मः। यः धर्मः भवति तद्विपरीतो भवति अधर्मः। धर्मे प्रवृत्तिर्यथा भवति तथा अधर्मे निवृत्तिरपि भवेदिति वेदानुशासनम्। नाम एवं धर्मः वेदमूलकः भवति अतः ब्रह्म अपि वेदमूलकं भवति एतत् उभयमपि केवलं वेदेन एव ज्ञातव्यम् अधुना शास्त्रे यः धर्मः नित्योपायेन वा कृतकोपायेन वा तत्र प्रतिपाद्यते स च धर्मः वेदमूलकः अतः काव्यमपि काव्यवस्तु अपि यद्भवति तद् वेदोपदेशविषयकमेव भवेत् नाम वेदाद्भिन्नमस्मद्वाङ्मये यत्किञ्चित् भवति चेत् तद् वस्तुतः अस्माभिर्नाङ्गीक्रियते नाम न स्वीकार्यमेव तत् अतः शास्त्रे नाम वेदशास्त्रे यन्निबद्धं तदेव धर्मं तद्विपरीतमधर्मम् इति अतः निश्चयेन कृतकेण वा उपायेन यः धर्मः पुंसां पुरुषाणां श्रेयसे उपदिष्टः सः शास्त्रशब्दभाग्भवति तच्छास्त्रं वेदमूलकं भवति एवं नित्यानित्यप्रवृत्तिनिवृत्तिप्रयोजकम् इति वाक्यस्य निर्वचनसन्दर्भे अयं सर्वोऽपि प्रसङ्गः आगतः नाम कृच्ये प्रवर्तयति अकृच्ये निवर्तयति इति पुनः चमत्कारजनकज्ञानगोचरं भवति काव्यं चमत्कारं जनयति अस्माकं शास्त्रप्रपञ्चे नीरसशास्त्राणि सरसशास्त्राणि इति विभागः आर्यैः कृतः वर्तते नीरसशास्त्राणि तत्र अस्माकं बुद्धिं नितरां क्लेशयन्ति नितरां तत्र बुद्धेर्व्यापारं जनयन्ति परन्तु काव्यशास्त्रमेतादृशं भवति बुद्धिम् अत्यन्तं न क्लेदयति परन्तु धर्मोपदेशस्तु काव्येण सुलभतया एव क्रियते एवं सरसशास्त्रं काव्यमिति नीरसशास्त्रं तत्र न्यायमीमांसादिकमित्यपि विभागः आचार्यैः कृतः वर्तते एवं चमत्कारः यत्र भवति तत्र आनन्दः भवति चमत्कारः नाम अस्माकं चित्तरञ्जकः कश्चित् गुणः चित्तं यत्र रञ्जितं भवति तत्र वयं नितरां प्रवर्तामहे अधुना एकः कश्चन अस्मिन् सन्दर्भे प्रसङ्गः तत्र सीतारामादिवियोगसन्दर्भे शोकः तत्र प्रतिपाद्यते शोकः नितरां तत्र जायते परन्तु शोकविषयकमपि काव्यं वयं बहुधा पश्यामः बहुधा शृण्मः बहुधा पठामः किमर्थं तादृशप्रवृत्तिस्तत्र लोके तु यत्र सुखविषयकप्रपञ्चः भवति तत्रैव अस्माकं प्रवृत्तिः दुःखजनकं हृदयोद्वेजकं यज्जगद्भवति तत्र निवृत्तिः एतत्तु सामान्यं तत्र लक्षणं भवति मनुष्यस्य परन्तु काव्यमेतादृशं भवति तत्र अस्माकम् उपदेशः येन केनापि वा प्रकारेण भवेत् तत्र शोकोऽपि अस्मान् कञ्चित् धर्मम् उपदिशति चेत् अवश्यं तं वयं ग्रहीतुं सन्नद्धाः भवेम अतः धर्मप्रवृत्तिपरकबुद्ध्या एव केचन शोकविषयकमपि काव्यं पठन्ति सीतारामादिवियोगे यः धर्मः पालितः सः धर्मः अनेकैरपि भारतीयजनसामान्यैरपि पालितः पत्नीवियोगेन पतिः कीदृशवियोगम् कीदृशदुःखम् अवाप्नोति तत्रापि पालनीयः धर्मः कः इति तत्र उपदिश्यते अतः तत्कालविषयकधर्मज्ञानार्थम् अस्माभिः एतादृशकाव्यम् अवश्यं पठनीयं भवति अतः काव्यं किमात्मकं वा भवेत् तत् आनन्दात्मकं वा भवेत् शोकात्मकं वा भवेत् धर्मोपदेशकं भवतीति एकेन एव कारणेन एव अस्माकं तत्र प्रवृत्तिर्भवतीति आचार्य एवं धर्मे प्रवर्तकं काव्यं चमत्कारजनकं चमत्कारजनकज्ञानविषयकमपि काव्यं पुनः रमणीयार्थप्रतिपादकशब्दकदम्बकमपि काव्यं भवति रमणीयार्थ प्रतिपादकं शब्दकदम्बकं शब्दकदम्बकं नाम शब्दसमुदायः लोके यः शब्दसमुदायः अस्ति सः रमणीयार्थ प्रतिपादकः न भवति शास्त्रे विशिष्य काव्ये यः शब्दः भवति सः रमणीयार्थ प्रतिपादकः भवति अधुना अस्तमेति गभस्तिमान् इति कश्चन शब्दः नाम शब्दसमुदायः नाम सूर्यः अस्तमयते इति तत्र अस्य वाक्यस्य अर्थः एतद् वाक्यं श्रुत्वा अस्माकं लोकसहजः अयं व्यापारः अयं च विधिः लोकसहजः नाम प्रत्युदयमपि सूर्यः उदेति प्रतिसायमपि सूर्यः अस्तमेति इति अस्माकं सामान्यज्ञानमस्ति इति कारणात् अस्तमेति गभस्तिमान् इति यः शब्दः अस्ति सः रमणीयार्थप्रतिपादकः न भवति परन्तु अत्र एवं वादिनि देवर्षौ पार्श्वे पितुरथोमुखी लीलाकमलपत्राणि गणयामास पार्वती इति कुमारसम्भवे कालिदासेन यः श्लोकः तत्र प्रयुक्तः अयं श्लोकः चमत्कारजनक नाम रमणीयार्थप्रतिपादकः भवति नाम चमत्कारजनकः अयं श्लोकः भवति कथमिति चेत् तत्र पार्वती पितुः पार्श्वे अस्ति यदा पार्वती पितुः पार्श्वे अस्ति तदा नारदमहर्षिरागत्य परमेश्वरः भवतः सुतां परिणेतुमिच्छति स च परमेश्वरः एतादृग्विशिष्टगुणसम्पन्नः इति नारदः हिमवते तत्र सर्वमपि उपदिशति तदुपदेशसमये पार्वती निजपत्युः गुणसौरभं निजपत्युः गुणवैशिष्ट्यं शृण्वती सा अत्यन्तं लज्जिता भवति नाम लोके या कापि कन्या भवतु सा पत्युर्गुणसम्पत्तिं श्रुत्वा अवश्यं व्रीडावती भवति एवं व्रीडावती सा पार्वती लीलाकमलानां पत्राणि गणयन्ती अस्ति इति कथयति नाम वस्तुतः लीलाकमलपत्रगणनं कदा भवति सा पार्वती हस्ते किञ्चित् अरविन्दं गृहीत्वा एकं द्वयं नाम पत्रगणनम् अभिनयन्ती अस्ति वस्तुतः तत्र अभिनयनं नाम लज्जाव्यञ्जकं भवति नाम भूमौ दृष्टिः पुनः अङ्गुल्या भूविलेखनम् इत्यादिक्रियाः सर्वाः अपि लज्जाभिव्यञ्जिकाः भवन्ति इति कारणात् इयमपि या क्रिया भवति लीलाकमलपत्रगणनात्मिका सापि लज्जाभिव्यञ्जिका भवति अत्र कविः साक्षादियं पत्युर्गुणसम्पत्तिं शृण्वति लज्जते इति न कथयति अपि तु किं कथयति इति चेत् लीलाकमलपत्रगणनं करोति इति कथयति नाम कविकथने अत्र वैलक्षण्यमस्ति यद्वैलक्षण्यं लोके न भवति वयं लोके किं कथयामः तत्र पितुः पार्श्वे सा अस्ति सा निजपत्युः गुणान् श्रुत्वा लज्जिता अस्ति इति वयं कथयामः तेन अस्माकं चमत्कारः न भवति परन्तु अत्र लीलाकमलपत्रकरणं करोति इयम् इति कथयति नाम वस्तुतः इयं तु अत्यन्तमुग्धा अस्ति मुग्धा कन्या इयं मुग्धा नायिका इति कारणादियं प्राक् यं कञ्चिदपि मनोविकारं न प्राप्तवती अधुना एव पत्युर्गुणविशेषश्रवणेन इयं लज्जिता भवति पुनः स च पतिः कीदृश इति चेत् लोकातीतगुणसम्पन्नः साक्षात् परमेश्वरः सृष्टिस्थितिलयकारणभूतः इति पत्युर्गुणादिकं श्रुत्वा सा इच्छन्तं मनो इतोपि मनोवैशाल्यं प्राप्नोति नाम लोके अन्याः कन्याः सामान्यतया लोकसहजमेव पुरुषं परिणमन्ति अहं तु अस्मि कश्चिद् काचिद् विलक्षणा साक्षात् परमेश्वरः लोकविधाता एव मम पतिः इति पार्वत्याः मनोवैशाल्यं तस्याः भावगाम्भीर्यमपि अनेन श्लोकेन अभिव्यञ्जितं भवति वस्तुतः एतत् सर्वमपि लौकिकवाक्यैः न व्यञ्जितं भवति, परन्तु काव्यगतवाक्यैः एतत् सर्वमपि व्यञ्जितं भवति। अतः कालिदासः विलक्षणगुणसम्पन्नः प्रागुक्तकवित्वशक्तिमान् भवति कालिदासः इति कारणात् लीलाकमलपत्रगणनरूपक्रियया एतादृशं विशालं भावं सः अत्र विक्षिपति। एवम् अत्र शब्दार्थयुगलं काव्यं भवति इति केचन अङ्गीकुर्वन्ति। नाम अत्र इतोपि किञ्चित् लक्षणशास्त्रम् आगच्छामः। लक्षणशास्त्रे शब्दः एव काव्यं वा शब्दार्थयुगलं काव्यं वा इति वदन्ति। नाम केवलं शब्देन एव चमत्कारसिद्धिर्भवति चेत् इतोपि अर्थेन किं प्रयोजनम्? न शब्दं विना केवलम् अर्थेन एव प्रयोजनसिद्धिरिति चेत्, नाम चमत्कारसिद्धिरिति चेत्, किं वा शब्देन इति प्रश्नः कर्तव्यो भवति। नाम एकेन प्रयोजनसिद्धिर्भवति चेत् तदन्येन अस्माकं प्रयोजनसिद्धिर्नास्ति इति चेत् मनःप्रवृत्तिर्न भवति। परन्तु काव्यं केवल शब्दकदम्बकं भवति इति यत् जगन्नाथादिभिः प्रोक्तं, तत्तु अन्यैरपि अलङ्कारिकैः खण्डितं। शब्दार्थयुगलं शब्दार्थौ द्वावपि काव्यमिति मते सर्वेषां प्रायशः अधिक आलङ्कारिकानां मनस्तत्र लगति, मनः सङ्गतं भवति। एवं पश्यामश्चेत् शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः अर्थवत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् इति भट्टतौ तस्य वाक्य भट्टतौ तस्य काव्यत्वसम्पत्तिसमये श्लोकः इति अभिनवगुप्तः निजलोचनव्याख्याकरणसन्दर्भे विवृणोति। अत्र केवलं केचन आलङ्कारिकाः शब्दः एव काव्यमिति वदन्ति, केवल अर्थ एव काव्यमिति केचन वदन्ति, परन्तु केचन वदन्ति शब्दार्थोभयमपि काव्यम्। तत्र शब्दार्थ उभयं यदस्ति तदेव काव्यशब्दभाक् भवेत् इति तस्य अभिप्रायः। एवं पश्यामश्चेत् काव्यशब्दः शब्दार्थयुगलरूपलक्षणे एव सङ्गतः भवति इति अस्माभिर्ज्ञातव्यो भवति। एवं पुनः अत्र कश्चन विषयः वक्तव्यो भवति। यत् काव्यं भवति तत् शास्त्ररूपेण अपि अङ्गीकृतं, तेन काव्येन प्रयोजनमपि अस्ति। नाम सर्वस्यापि शास्त्रस्य यथा अनुबन्धचतुष्टयमिति इतः प्राग्भिराचार्यैर्निर्दिष्टमस्ति, तदस्यापि शास्त्रस्य इति अस्ति वा इति विचारणीयः भवति। शास्त्रं नाम अनुबन्धचतुष्टययुक्तमेव भवेत्। अधिकारी च विषयः सम्बन्धस्सप्रयोजनः ग्रन्थादावेव वक्तव्यम् अनुबन्धचतुष्टयमिति लक्षणकारैः तत्र निर्दिष्टमस्ति। अतः अलङ्कारशास्त्रस्य अधिकारी कः भवति इति चेत् तत्र सहृदयः अधिकारी भवति। सहृदयस्य लक्षणं किम् इत्यपि ज्ञातव्यम्। सहृदयः कः भवति इति चेत् येषां काव्यानुशीलनाभ्यासवशात् विशदीभूते मनोमुकुरे वर्णनीयतन्मयी भवनयोग्यता ते स्वहृदयसंवादभाजः सहृदयाः इति अभिनवगुप्तनिर्वचनमस्ति। अभिनवगुप्तः एवं निर्वदति, एवं निर्वक्ति सः। नाम काव्यमनुशीलयन् काव्यानुशीलनसन्दर्भे तदध्ययनसन्दर्भे येषां मनः वर्णनीयतन्मयीयोग्यतां प्राप्नोति, तन्मयीभवनयोग्यतां प्राप्नोति, ते स्वहृदयसंवादभाजः नाम कविहृदयेन सह संवदन्ति, ते सहृदयाः इति। नाम कविना समानं हृदयं येषां ते
ते सहृदयाः इति सामान्य निर्वचनं परन्तु विशिष्टं निर्वचनम् एतद् भवति काव्यपठनश्रवणादिसन्दर्भे यः वस्तुना सह तादात्म्यमाप्नोति सः सहृदयः भवति कविर्येण हृदयेण वस्तु विक्षिपति वस्तुः वस्तु निक्षिपति काव्ये तन्मुखेन एव सहृदयः गृह्णाति यदि दुर्हृदयश्चेत् तत्र पाषाणकुड्यादितुल्यः भवति इति नाट्यशास्त्रादि ग्रन्थेषु उल्लिखितः अस्ति सहृदयः एव काव्यस्वारस्यं ज्ञातुमर्हति यः सहृदयो न भवति सः काव्यतत्त्वं ज्ञातुं नार्हति इति कारणात् अधिकारे भवति अस्य काव्यशास्त्रस्य सहृदयः एवं विषयः कः भवति इति चेत् काव्यशास्त्रे तत्र अनेके विषयाः भवन्ति के विषयाः तत्र प्रतिपादनीयाः इति चेत् प्रत्येकमपि प्रत्येकग्रन्थेपि विषयपरिणामः भवति अधुना अलङ्कारशास्त्रे ध्वनिसम्प्रदायः अलङ्कारसम्प्रदायः रससम्प्रदायः वक्रोक्तिसम्प्रदायः औचित्यसम्प्रदायः गुणसम्प्रदायः औचित्यसम्प्रदायः इति अष्टौ सम्प्रदायाः वर्तन्ते एतेषां सम्प्रदायानां प्रवर्तकाः आचार्याः तैः प्रणीतानि पुस्तकानि नाम ग्रन्थाः अपि केचन वर्तन्ते नाम एकैकस्मिन्नपि ग्रन्थे एकैकः विषयः भवति अधुना ध्वन्यालोकः आनन्दवर्धनेन प्रणीतः ग्रन्थः तस्य ग्रन्थस्य विषयः भवति ध्वनिः इति काव्यस्य आत्मा ध्वनिः इति सः वदति अतः काव्यशास्त्रे विषयः अलङ्कारादिर्भवति सः प्रत्येकमपि ग्रन्थे विशिष्टः भवति एवं सम्बन्धः कः भवति इति चेत् ग्रन्थस्य ग्रन्थगतविषयस्य च प्रतिपादकभावसम्बन्धः भवति यतोहि ग्रन्थः विषयप्रतिपादकः भवति विषयः ग्रन्थप्रतिपाद्यः भवति इति कारणात् विषयग्रन्थयोर्मध्ये प्रतिपाद्यप्रतिपादकभावसम्बन्धः अस्ति इति ज्ञातव्यं पुनः प्रयोजनविषये तु प्राग् ज्ञातमेव एवम् इतरेषां शास्त्राणां यथा अनुबन्धचतुष्टयमस्ति तथा काव्यशास्त्रस्यापि अनुबन्धचतुष्टयमस्ति इति अनेन वयं ज्ञातुं कञ्चन प्रयत्नं कृतवन्तः पुनः काव्यशास्त्रस्य प्रयोजनं ज्ञातं काव्यं किं स्वरूपम् इत्यपि ज्ञातं काव्यं ये प्रणयन्ति काव्यप्रणेतारः ये भवन्ति तेषां स्वरूपं किं तेषां स्वभावः वस्तुतः कः भवति इत्यपि अस्माभिर्ज्ञातं पुनः कविमनसस्वभावः प्रत्येकसन्दर्भे कथं विलक्षण गुणवान् भवति इत्यपि ज्ञातम् एवम् अस्मिन् सन्दर्भे बहवः विषयाः अस्माभिः ज्ञाताः भवन्ति तत्र अन्यः कश्चित् श्लोकः भवति या दुग्धापि न दुग्धेव कविदोग्धृभिरण्वहं हृदिनः सन्निधत्तां सा सूक्तिधेनुः सरस्वती इति सरस्वती शास्त्र अधिष्ठातृदेवती देवता भवति प्रत्येकस्यापि शास्त्रस्य अधिष्ठातृदेवता सरस्वती एव एवं काव्यशास्त्रस्यापि देवता इयमेव भवति इति कारणात् राजशेखरः अस्मिन् श्लोके एवं वदति नाम अनेकैरपि कविभिः इयं सूक्तिधेनुः सरस्वती दुग्धा अस्ति नाम अनेकैरपि कविभिः अनेकानि काव्यानि प्रणीतानि तानि काव्यानि प्रत्येकमपि विलक्षणगुणसम्पत्तीनि भवन्ति एवं पश्यामश्चेत् दुग्धा अपि नाम नानाविधकाव्यप्रणयनेन सा दुग्धा अपि सरस्वती अदुग्धा इव पुनर्नवीना इव पुनर्नूतना इव పురాతనీ ఇవ యథా మాభూత్ తథా నూతనా ఇవ యథా స్యాత్ తథా హృదినః అస్మాకం హృదే సా సన్నిధత్తాం ఆవిర్భవతు ఇది తస్య వచనమస్తి. అనేన ప్రసంగేన వయం ఏతావతా బహూన్ విషయాన్ జ్ఞాతవంతః. సందర్భాంతరే అన్యానపి విషయాన్ జ్ఞాతుం ఇతోపి ప్రయత్నం విధాస్యామః ఇతి వదన్ అహమనేన ఆత్మవ్యాపారాత్ విరమామి.